अथ शिवध्यानमाला।
आगच्छाविव सम्पृक्तौ आगच्छ प्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। न शिवेन विना शक्तिः न शक्तिरहितः शिवः न तत्त्वतस्तयोर्भेदः चन्द्रचन्द्रिकयोरिव। यम् वेदाः सततम् स्तुवन्ति नितरा ध्यायन्ति यम् योगिनो यः सृष्ट्यादिनिदानमुष्णकिरणः इन्द्वग्नि ईक्षणो यः पुमान् यस्मिन् शैलसुतार्थार्धवपुषि प्रज्ञात्मके शाश्वते मच्चित्तम् रमताम् सदा वयहरे श्रीमत्परब्रह्मणि। या सृष्टिसृष्टुराद्या वहति विधिहुतम् या हविर्या च होत्री ये द्वे कालम् विधत्तः श्रुतिविषयगुणा यास्तिता व्याप्य विश्वम्। या माहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिः अवतु वः ताभिरष्टाभिरीशः। वेदान्तेषु यमाहुरेकपुरुषम् व्याप्य स्थितम् रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः। अन्तर्यश्च मुमुक्षुभिः नियमितप्राणादिभिर्मृग्यते सस्तानुस्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः। योगिध्येयम् विमलविशदप्रस्फुरद्रम्यकान्तिम् शान्तम् बुद्धम् सुरपरिदृढैः आनतैरर्च्यमाणम् कारुण्यार्द्रम् हसितसुषमा मोदिताशेषविश्वम् साक्षात्तत्त्वप्रतिकृतिम् उमासंयुतम् नौमि शम्भुम्। संसारसिन्धोस्तरणैकहेतून् दधे गुरोन्मूर्नि शिवस्वरूपान् रजांसि येषाम् पदपङ्गजानाम् तीर्थाभिषेकश्रियमावहन्ति। नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमः शोदिष्ठाय स्मरहरमहिष्ठाय च नमः। नमो वरिशिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदितमधि सर्वाय च नमः।